सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे फलान्यपि परार्थाय वृक्षाः सत्पुरुषा इव. इत्युक्ते वृक्षाः सर्वदा अन्येषां कृते छायां ददति, अपि च ते अपरेषां कृते फलानि ददति, परन्तु ते वृक्षाः सर्वदा स्वयम् आतपे तिष्ठन्ति. अत्र आतपः इत्युक्ते सूर्यतापः. सर्वदा वृक्षाः उष्णतायाम् एव तिष्ठन्ति, तदा स्थित्वा फलानि ददति वृक्षाः. तथा एव सत्पुरुषाः अपि सर्वदा अपरेषां कृते लोककल्याणार्थं कार्याणि कुर्वन्ति. यदि अहम् एतत् कार्यं करोमि चेत् मम कोऽपि लाभः अस्ति वा, अस्मिन् कार्ये कोऽपि मम प्रयोजनम् अस्ति वा इति ते सत्पुरुषाः न चिन्तयन्ति, तथा न चिन्तयन्ति. तथा एव अस्माकं ऋषयः अपि अस्माकं कृते एव बहु किमपि संस्कृतवाङ्मयं दत्तवन्तः. संस्कृतभाषायां बहु किमपि वाङ्मयमस्ति, तद्वाङ्मयम् अस्माभिः पठनीयं. परन्तु भाषायाः अवगमनार्थम् अत्र संस्कृतभाषायाः अवगमनार्थं व्याकरणम् आवश्यकं. तदर्थं वयं सर्वे अत्र मिलित्वा एकवारं पुनः संस्कृतभाषायाः अवगमनार्थं किञ्चित् प्रयत्नं कुर्मः. अपि च अस्माकं ऋषीन् प्रति कृतज्ञतां दर्शयामः. उत्तमम्. अनन्तरम् अत्र गते सप्ताहे वयं भूतकालरूपाणां विषये किञ्चित् पठितवन्तः, तवत् रूपाणां विषये पठितवन्तः, अपि च अस् धातोः वर्तमानकालरूपाणि, भूतकालरूपाणि, अपि च भूतकालरूपाणि अपि पठितवन्तः. प्रथमतया वयं गृहपाठविषये किञ्चित् चिन्तनं कृत्वा अनन्तरम् अभ्यासपुस्तके किं दत्तमस्ति इति पुनः एकवारं पश्याम. अत्र कादम्बरी भगिनी, भवती लिखितवती वा अत्र वाक्यानि?
आं भगिनि,
श्रावयतु.
मम समीपे दश लेखनी सन्ति. मम समीपे एकं लेखनी अस्ति.
पूर्वतन भगिनी, पूर्वतनवाक्यं किं, प्रथमं वाक्यं किम्?
मम समीपे दश लेखनी सन्ति.
लेखन्यः सन्ति.
अस्तु,
किमर्थं तथा? उत्तमं. लेखनी इति ईकारान्तस्त्रीलिङ्गपदं नदी शब्दवत्. लेखनी, लेखन्यौ, लेखन्यः. उत्तमम्. अग्रिमं वाक्यं पठतु.
अहं बालिका अस्मि.
बालिका अस्मि.
वयं बालिकाः स्मः. ह्यः परीक्षाः आसन्.
परीक्षाः आसन्. उत्तमम्.
प्रपरह्यः अहं मन्दिरे आसम्. प्रपरह्यः वयं मन्दिरे आस्म.
आस्म. उत्तमम्. तावदेव वा?
आं भगिनि.
अस्तु, उत्तमम्. उत्तमानि वाक्यानि. अपि च आरोहन् भवान् वक्तुमिच्छति वा? वदतु, वाक्यानि श्रावयतु.
Mm-hmm. चलचित्रगृहे एकः चलचित्रः अस्ति.
पुनः 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 एकवारं.
चलचित्रगृहे एकः चलचित्रः अस्ति. चलचित्रगृहे बहूनि चलचित्राणि सन्ति.
चलचित्राणि सन्ति. इतोपि
अहं चतुरा अस्मि. वयं चतुरं स्मः.
वदतु. सम्यक् न श्रूयते महोदय, सम्यक् न श्रूयते आरोहन् अत्र. वदतु वदतु वदतु, शनैः शनैः वदतु. न श्रूयते न श्रूयते. वदति वा? तावदेव वा? अस्तु, भवान् चिन्तयतु इदानीम्. अधुना भवान् चिन्तयतु अधुना. लक्ष्मी भगिनी भवती वदतु अत्र.
आम्, वानरः वृक्षस्य उपरि अस्ति. वानराः वृक्षस्य उपरि सन्ति. एकः बालकः आसीत्. पञ्चबालकाः आसन्.
पञ्चबालकाः आसन्.
अहं छात्रः अस्मि. वयं छात्राः स्मः. अत्र एकः वृक्षः अस्ति. पूर्वं वृक्षस्य स्थाने सस्यः आसीत्.
वृक्षस्य स्थाने सस्यम् आसीत्. उत्तमम्.
अहं मित्रस्य गृहे आसम्. वयं मित्राणां गृहे आस्म. तावदेव.
वयं मित्रस्य गृहे आस्म. उत्तमम्. अनन्तरम् अत्र राजीव् महोदय भवान् श्रावयतु.
आं भगिनि, माल्बोरो नगरं न्यूयार्क् नगरे दक्षिणतः अस्ति. अमेरिकाराष्ट्रे 50 प्रदेशानि सन्ति.
अमेरिकादेशे 50
प्रदेशानि सन्ति.
प्रदेशानि, प्रदेशाः, तत्र प्रदेशाः प्रदेशाः. किमपि वदतु महोदय.
मम गृहे पुत्रस्य जन्मदिनम् आसीत्.
जन्मदिनम् आसीत्.
चत्वारिंशत् अतिथिम् आगतवान् आसीत्. इस् देट् करेक्ट्?
चत्वारिंशत् अतिथयः.
अतिथयः.
अतिथिः इकारान्तपदम्. अतिथयः आगतवन्तः आसन्. जन्मदिने चत्वारिंशत् अतिथयः आगतवन्तः आसन्.
ऐ रोट् अनदर् वन् फोर् आसन्. नरेन्द्रमोदिः शपथग्रहणम् अवसरे राष्ट्राध्यक्षान् आसन् वा? इस् दट् करेक्ट्?
पुनः एकवारं वदतु महोदय.
नरेन्द्रमोदिः शपथग्रहणे अवसरे राष्ट्राध्यक्षान् आसन् वा
शपथग्रहणसमये राष्ट्राध्यक्षः आसन् वा आसीत् वा राष्ट्राध्यक्षः आसीत् वा एकवचने वक्तुम् इच्छति भवान्
ओके Yeah, I wanted to say Rashtradhyaksh from different countries.
Oh, that's
Ast chatvarinsat वर्षाणि अस्मि मम माता च पितां उत्तरप्रदेशे लघुं ग्रामे वसति स्म
लघुग्रामे वसति स्म वसति स्म अथवा आसीत् माता मम माता अधुना इदानीमपि अस्ति वा किमपि आसीत् आसीत् अपि सम्यक् एव अस्तु
अस्म अहं भारतदेशे दर्शनार्थम् आस्मः
अहं भारतदेशे
दर्शनार्थम् आस्मः
तत्र महोदय पश्यतु अत्र अहम् एकवचने भवान् उक्तवान् अहं कर्तृपदम् अहं योजयामश्चेत् तत्र क्रियापदं किं भवति आसम्
यस् आसम्
बहुवचने वयम् आस्म
वयम् आस्म
उत्तमम् अनन्तरम्
आस्म वयं गते सप्ताहे बोस्टन् नगरे आस्म
उत्तमं धन्यवादः अनन्तरं धन अत्र स्मिता भगिनी भवती वक्तुमिच्छति वा स्मिता भगिनी भवती वदतु
वयं गतमासे संस्कृतं सम्भाषणं पठनार्थं भारतदेशे आस्म अहं अहं
अत्र
अनन्तरम् अहं वदामि
अस्तु भगिनि अस्तु अस्तु अनन्तरम् अत्र विलम्बेन केनापि आगतं वा अत्र 3016416262 कस्य दूरवाणी संख्या 3016416262 विलम्बेन केनापि आगतं वा अत्र नाम उच्यताम् एनानिमस् अपि अस्ति अत्र नाम उच्यताम् यु शुड् अनौन्स् युवर् नेम्
रूपा
भगिनी अस्तु भगिनी अद्य प्रथमवारम् आगतवती वा
प्रथमवारम्
अस्तु भवती भागम् ओढुमिच्छति वा नो चेत् केवलं शृणोति वा
अद्य शृणोमि
अस्तु
आगमि सप्ताहे
अस्तु भवत्याः नाम रूपा
रूपा
अस्तु अनन्तरम् अत्र 908
आम् मम नाम हेमा अद्य प्रथमवारे डायल् करोमि
डायल् कृतवती उत्तमम् अनन्तरं भवती भागम् ओढुम् इच्छति वा नो चेत् केवलं शृणोति वा अद्य 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 भवती किं कर्तुमिच्छति?
अद्य श्रुतवान्
अद्य अद्य केवलं शृणोमि
अद्य केवलं शृणोमि
उत्तमम् अत्र एनानिमस् अन्य एनानिमस् काल् अस्ति अन्य कोऽपि अस्ति वा अत्र
नमस्ते नमस्ते मम नाम श्रीपति रामानुजदास अहमपि केवलं शृणोमि
अस्तु महोदय स्वागतम् उत्तमम् इदानीं पर्यन्तं अधुना सुब्बारा महोदय भवान् वदतु वाक्यानि श्रावयतु
अत्र कति पुस्तकानि सन्ति अत्र एकं पुस्तकम् अस्ति अहं चित्रं भगिनि
वदतु महोदय अहं
शृणोमि अहं अहं चित्रमन्दिरे अस्मि वयं चित्रमन्दिरे स्मः कश्चन महावृक्षः आसीत् तत् महावृक्षस्य उपरि बहूनां विहङ्गः आसन्
बहवः विहङ्गाः
बहवः विहङ्गाः
बहवः विहङ्गाः तत्र विहङ्गपदं महोदय भवान् दृष्टवान् वा शब्दकोशं दृष्टवान् वा अत्र विहङ्गः इति पदं नपुंसकलिङ्गपदं वा अथवा पुंलिङ्गपदं वा भवान् दृष्टवान् वा शब्दकोशं
न दृष्टवान्
अस्तु यदि पुंलिङ्गपदमस्ति चेत् किं वदामः बहवः विहङ्गाः
बहवः विहङ्गाः
नो चेत् यदि नपुंसकलिङ्गपदमस्ति चेत् किं वक्तव्यं
बहूनां
बहूनि
बहूनि
विहङ्गानि इति भवति परन्तु द्रष्टव्यं शब्दकोशं दृष्ट्वा वक्तुं शक्नुमः पदं पुंलिङ्गपदं वा नो चेत् नपुंसकलिङ्गपदं वा इति प्रथमतया द्रष्टव्यं परन्तु तस्मिन् वाक्ये बहवः अथवा बहूनि इति पदानि विशेषणानि भवन्ति विशेषणं पदं सर्वदा तत्र कर्तृपदम् अनुसृत्य एव तस्य लिङ्गं वचनविभक्तिः अपि भवति वाक्ये अनन्तरम्
अहं बालः आसम् वयं बालाः आस्म
वदतु महोदय अत्र अत्र अहं दृष्टवती अधुना तदर्थं वदामि विहङ्गः इति पदं पुंलिङ्गपदं विहङ्गः इत्युक्ते किं वदतु
विहङ्गः बर्ड्
बर्ड् उत्तमम् अत्र पदं पुंलिङ्गपदम् एव यदि पदं पुंलिङ्गपदम् अस्ति चेत् किं वदामः तत्र वृक्षे बहवः विहङ्गाः आसन्
तत् वृक्षे बहवः विहङ्गाः आसन् परन्तु अहं तत् वृक्षस्य उपरि बहवः विहङ्गाः आसन्
वृक्षस्य उपरि अत्र पश्यतु महोदय तत् इति पदं तत्र पूर्वं तत् इति पदं योजयित्वा भवान् वाक्यं रचितवान् तत्र तत् इति पदस्य रूपमपि परिवर्तनं कृत्वा एव वक्तव्यम् इत्युक्ते यदि वृक्षस्य इति वदामश्चेत् तस्य वृक्षस्य अथवा तस्मिन् वृक्षे तत् शब्दस्य सप्तमी रूपं वक्तव्यं वृक्षशब्दस्य सप्तमी रूपं किं
वृक्षस्य
सप्तमी रूपं वृक्षे
सप्तमी रूपं वृक्षे
तथा एव तत् शब्दस्य सप्तमी रूपं तस्मिन् तदा किं वक्तव्यं तस्मिन् वृक्षे वदतु तदेव वाक्यं तस्मिन् वृक्षे
तस्मिन् वृक्षे बहवः विहङ्गाः आसन्
आसन् तावदेव अनन्तरम् अत्र इतोपि वाक्यानि सन्ति वा
आसम् आस्म अहं बालः आसम् वयं बालाः आस्म
बालाः आस्म अस्तु बहु लघुवाक्यं लघुवाक्यम् अस्तु उत्तमम् इतोपि वाक्यानि सन्ति वा
तदेव
तदेव तावदेव उत्तमम् अनन्तरम् अत्र शङ्करन् महोदय भवान् वक्तुमिच्छति वा अत्र अस् धातोः लट्लकाररूपाणि अपि च लङ्लकाररूपाणि इत्युक्ते अस् धातोः वर्तमानकालरूपाणि अपि च भूतकालरूपाणि योजयित्वा वाक्यानि रचयन्तु तदेव अस्माकं गृहपाठः गते सप्ताहे अत्र शङ्करन् महोदय भवान् वक्तुमिच्छति वा अत्र
भगिनी अहं शरीरं सुखं सम्यक् नास्ति जस्ट्
अस्तु महोदय शृणोतु महोदय अत्र शृणोतु चिन्ता मास्तु चिन्ता मास्तु शृणोतु अधुना गते सप्ताहे वयम् अस् धातोः अत्र अभ्यासपुस्तके अस् धातोः रूपाणि नवत्रिंशत्तमे पुटे अस् धातोः रूपाणि पठितवन्तः तदनन्तरं तत्र एकं सम्भाषणमस्ति मित्रयोः सम्भाषणं तत् सम्भाषणं पठित्वा वयं किञ्चित् अवगतवन्तः इत्युक्ते सम्भाषणे अस् धातोः रूपाणि कथं तेषाम् उपयोगं कथं कुर्मः कथं तेषाम् उपयोगः भवति इति वयं किञ्चित् ज्ञातवन्तः अधुना वयम् इतोपि भूतकालरूपाणां विषये एव इतोपि ज्ञास्यामः अत्र सर्वे कथायाः नीतिः का इत्यस्मिन् विषये अपि स्वस्य वाक्यैः वदतु इति अहं दत्तवती परन्तु अत्र समयाभावात् वयं केवलं तत् तं भागं त्यक्त्वा वयम् अग्रे गच्छेम अधुना अत्र अत्र किं कुर्मः अधुना कादम्बरी भगिनी भवती अत्र पश्यतु नवत्रिंशत्तमे पुटे एकं सम्भाषणस्य अनन्तरं तत्र एका कथा अस्ति तां कथाम् अधुना पठामः पठति वा
अस्मि भगिनि
अत्र नवत्रिंशत्तमे पुटे गते सप्ताहे वयं तत्र सम्भाषणं पठितवन्तः अधुना वयम् अत्र एका कथा अस्ति किमर्थं पठामः इत्युक्ते कथां किमर्थं पठनीयम् इत्युक्ते अत्र अस्यां कथायां बहूनि भूतकालरूपाणि सन्ति अत्र विषयः कः इत्युक्ते भूतकालरूपाणाम् अवगमनम् अपि च व्याकरणांशानां परिशीलनम् अपि च कथायाः अवगमनम् अस्माकं कृते त्रीणि कार्याणि सन्ति फस्ट् थिङ्ग् इस् वि नीड् टु अण्डर्स्टाण्ड् द स्टोरि सेकेण्ड् वन् इस् वि नीड् टु अण्डर्स्टाण्ड् द ग्रामर् पायिण्ट्स् व्याकरणांशानां परिशीलनम् अपि च कथायाः अवगमनं कार्यद्वयमपि अस्माकं कृते अपेक्षितम् अधुना पठतु अत्र किं दत्तमस्ति
अस्तु एतत् सम्भाषणं पठतु
तद् अभवत् भगिनी तदभवत् केवलं कथां पठतु एतां कथां पठतु तत्र 11.3 सर्वे पश्यन्तु अभ्यासपुस्तके 11.3 आभागे
एतां कथां पठतु कश्चित् बालकः अस्ति तस्य नाम सुधीरः एकदा सुधीरः नगरं गच्छति क्षीरस्त्राणि क्रीणाति तेषां विक्रयणार्थं ग्रामं गच्छति मार्गे अरण्यम् अस्ति सुधीरः शान्तः भवति सः वृक्षस्य अधः उपविशति क्षीरस्त्राणि पत्रपेटिकां पार्श्वे स्थापयति तत्र एव निद्रां करोति
उत्तमम् अत्र स्थगयतु भगिनि अत्र भवती अवगतवती वा अत्र किं दत्तमस्ति अवगतवती अधुना वयं किं कुर्मः किञ्चित् एकमेकं वाक्यं स्वीकृत्य किञ्चित् चिन्तनं कुर्मः अत्र प्रथमं वाक्यं किम्
कश्चित् बालकः अस्ति
इत्युक्ते अत्र एकं नूतनं पदमस्ति कश्चित् इति पदमस्ति तस्य अर्थः कः भवती जानाति चेत् वदतु
एकः
वदतु
सम्
सम् इत्युक्ते अत्र किं किं दत्तमस्ति कश्चित् कश्चित् इत्युक्ते अत्र एकः बालकः अस्ति सः कः इति वयं न जानीमः वयं न जानीमः इत्युक्ते अत्र वि आर् नाट् सर्टन् अबौट् हू इस् दट् बाय् तत्र एकः बालकः अस्ति तस्य सः कः इति वयं न जानीमः कश्चन बालकः सम् बाय् अत्र संस्कृतभाषायाम् अनिश्चितार्थे if we are not certain about something then we are supposed to add chit athava chana kaha yogah vayam janimaha kaha iti padam janimaha ekam vakyam vadatu kaha yojitva
saha kaha
uttamam saha kaha vayam janimaha atra kaha yogah chit tatra sandhihi bhavati कः योगः चित् कश्चित् इति भवति तत्र विसर्गस्य स्थाने शकारादेशः भवति तदर्थमेव अत्र कश्चित् इति पदमस्ति कश्चित् बालकः अस्ति तस्य नाम किम्
तस्य नाम सुधीरः
सुधीरः उत्तमं सः एकदा किं करोति
एकदा सः नगरं गच्छति
अत्र अस्मिन् वाक्ये कर्मपदं किम्
नगरं
क्रियापदं किं
गच्छति
उत्तमम् अनन्तरं नगरं गत्वा सः किं कर्तुम् किं करोति
शिरस्त्राणि क्रीणाति
क्रीणाति अत्र शिरस्त्राणि एकं नूतनं पदं तस्य अर्थः कः उत्तमम् एकवचने वदतु अत्र वाक्यं बहु अत्र पदं बहुवचने अस्ति शिरस्त्राणि इति दत्तमस्ति परन्तु एकवचने वक्तुं शक्नोति वा शिरस्त्राणि सः एकदा नगरं गच्छति अनन्तरं शिरस्त्राणि क्रीणाति इत्युक्ते किं
बै
उत्तमम् अनन्तरं तेषां सः प्रथमतया शिरस्त्राणि क्रीणाति तदनन्तरं सः तेषां शिरस्त्राणां विक्रयणार्थं ग्रामं गच्छति अत्र पूर्वम् एकं पदमस्ति क्रयणं इत्युक्ते बै परन्तु अत्र एकं नूतनपदमस्ति विक्रयणं इत्युक्ते क्रयणं विक्रयणं नूतनानि पदानि अस्माकं कृते अधुना सः प्रथमतया सः नगरं गत्वा शिरस्त्राणि क्रीणाति अनन्तरं विक्रयणार्थं ग्रामं गच्छति तदा किम् अभवत् अत्र वदतु
मार्गे अरण्यम् अस्ति
अत्र पदमस्ति मार्गः इति पदमस्ति मार्गः इति पदस्य रूपम् एव मार्गे विभक्तिः का वदतु
प्रथमा विभक्ति
उत्तमं मार्गः प्रथमाविभक्ति मार्गे वदतु
मार्गे सप्तमी विभक्ति
उत्तमं मार्गे अरण्यमस्ति सः ग्रामं गन्तुमिच्छति परन्तु मार्गे अरण्यमस्ति तदा सुधीरः श्रान्तः भवति श्रान्तः भवति सुधीरः सुधीरः कीदृशः श्रान्तः श्रान्तः इत्युक्ते कोऽपि जानाति अत्र टायर्ड् उत्तमम् उत्तमम् अत्र सुधीरः श्रान्तः सुधीरः कीदृशः सुधीरः श्रान्तः अत्र संस्कृतभाषायां धातवः सन्ति श्रम् श्रम् धातुतः श्रान्तः इति पदम् आगतं तथा एव मन् धातुतः मत वयं जानीमः हिन्दूमतम् इति वदामः मत इत्युक्ते अभिप्रायः इति अर्थः मन् धातुतः मत अपि च रं धातुतः रत गते सप्ताहे अहम् उक्तवती भारत इत्यस्मिन् पदे रं धातुतः रत इति पदम् आगतम् इत्युक्ते रत मत श्रान्त एतानि पदानि क्तान्तप्रत्ययान्तरूपाणि गते सप्ताहे वयं किं पठितवन्तः क्तवतु प्रत्ययान्तरूपाणि परन्तु क्तवतु प्रत्ययमपि अस्ति संस्कृतभाषायां क्तान्तप्रत्ययमपि अस्ति अत्र श्रम् धातोः क्तान्तरूपं दत्तमस्ति सुधीरः श्रान्तः सुधीरस्य सुधीरः इति पदस्य विशेषणम् एव श्रान्तः परन्तु अस्मिन् वाक्ये कर्मपदमस्ति वा कर्मपदं नास्ति अस्मिन् वाक्ये कर्मपदं नास्ति कथं कथं ज्ञातवती भवती सुधीरः श्रान्तः भवति अस्मिन् वाक्ये कर्मपदं नास्ति किमर्थं चेत् अत्र अस्मिन् वाक्ये केवलं त्रीणि पदानि सन्ति सुधीरः इति पदस्य विशेषणं श्रान्तः अपि च भवति इति क्रियापदं भूधातुः न कदापि कर्मपदं स्वीकरोति तदर्थमेव अस्मिन् वाक्ये कर्मपदं नास्ति सुधीरः श्रान्तः भवति तदा सः किं करोति
सः वृक्षस्य अधः उपविशति
भवती जानाति एव एतद् वाक्यम् अधः उपरि एतानि पदानि वयं पूर्वमेव पठितवन्तः यदि अधः इति पदं योजयित्वा वाक्यं रचयामश्चेत् तस्मात् पूर्वं कस्य विभक्तेः उपयोगं कुर्मः
षष्टि
तदर्थमेव अत्र सः सुधीरः वृक्षस्य अधः उपविशति वृक्षस्य अधः अधः इति पदं वाक्ये योजयित्वा रचयामः वाक्यं रचयामश्चेत् तस्मात् पूर्वं षष्टिविभक्तेः उपयोगं कुर्मः स एकः नियमः वृक्षस्य अधः वृक्षस्य उपरि इति वयं जानीमः सः श्रान्तः इति भूत्वा वृक्षस्य अधः उपविशति अनन्तरं किं करोति
शिरस्त्रपेटिकां पार्श्वे स्थापयति
पार्श्वे स्थापयति शिरस्त्रपेटिकां स्थापयति अत्र शिरस्त्रपेटिकाम् इति पदमस्ति विभक्तिः का वदतु पेटिकां उत्तमम् उत्तमं भवती जानाति एव शिरस्त्रपेटिकाम् इति द्वितीया विभक्ति एकवचनं परन्तु लिङ्गं किम्
स्त्रीलिङ्गम्
उत्तमं प्रथमविभक्ति एकवचनरूपं किं भवति
शिरस्त्रपेटिका
उत्तमं उत्तमं तावदेव. शिरस्त्रपेटिकां पार्श्वे स्थापयति. वयं जानीमः पार्श्वे इत्यस्मिन् पदस्य विषये अन्यानि पदानि वयं जानीमः, यथा पार्श्वे, समीपे, निकटे, सकाशे, सविधे, एतानि सर्वाणि पदानि पर्यायवाचकपदानि. दिस् आर् आल् सिनोनिम्स्. सिनोनिम्स् आर् पार्श्वे, पार्श्वे अथवा समीपे, निकटे, सकाशे, सविधे, एतानि पदानि वयं जानीमश्चेत् वयं नूतनानि वाक्यानि रचयितुं शक्नुमः. शिरस्त्रपेटिकां सविधे स्थापयति, शिरस्त्रपेटिकां निकटे स्थापयति इति अपि वक्तुं शक्नुमः. सः किं करोति? शिरस्त्रपेटिकां पार्श्वे स्थापयित्वा सः निद्रां करोति. इदानीं पर्यन्तम् अवगतं वा भगिनि? अत्र यदि अत्र निद्रां करोति इति पदमस्ति, तस्य कृते एकम् अन्यं पदमस्ति संस्कृतभाषायां. सः अत्र शेते इति पदमस्ति. शेते इत्युक्ते निद्रां करोति इति अर्थः. परन्तु शेते इति पदम् आत्मनेपदी इति वदामः. अत्र संस्कृतभाषायां पदानि त्रिप्रकारकाणि: परस्मैपदिनः, आत्मनेपदिनः, उभयपदिनः. परन्तु अत्र उपविशति, स्थापयति, गच्छति, एतानि पदानि परस्मैपदिनः. परन्तु शेते, वर्तते, वन्दते, प्रकाशते, एतानि पदानि आत्मनेपदिनः इति वदामः. परन्तु उभयपदिनः अपि सन्ति. अत्र करोति इति वयं जानीमः. करोति इति पदं क्रु इति धातुतः आगतं. क्रु धातोः रूपाणि अत्र क्रु धातुः उभयपदी धातुः. अतः क्रु धातोः परस्मैपदिरूपाणि सम्भवन्ति, अपि च आत्मनेपदिरूपाणि अपि सन्ति. करोति इति पदं परस्मैपदिरूपं, परन्तु कुरुते, कुरुते इति रूपम् आत्मनेपदिरूपं. करोति परस्मैपदिरूपम् इत्युक्ते क्रू धातुः उभयपदी धातुः. इदानीं पर्यन्तं भवती अवगतवती कथायां किमस्ति, अपि च व्याकरणविषयान् अपि वयं परिशीलितवन्तः. धन्यवादः भगिनी. तदनन्तरम् अत्र लक्ष्मी भगिनी भवती पठतु अग्रिमपरिच्छेदम्.
आं भगिनि, तत्र केचन वानरः सन्ति. एकः वानरः सुधीरस्य समीपम् आगच्छति. सः पेटिकां पश्यति, उद्घाटयति. एकं शिरस्त्रं गृह्यति.
भगिनि, अत्र पदमस्ति शिरस्त्रं गृह्णाति.
शिरसि धारयति, पुनः वृक्षस्य उपरि गच्छति, उपविशति.
अवगतवती वा अत्र किं दत्तमस्ति?
आं भगिनि,
एकवारं चिन्तनं कुर्मः. तत्र प्रथमं वाक्यं किम्?
तत्र केचन वानरः सन्ति.
वानराः सन्ति, केचन वानरा, केचन वानराः सन्ति. अत्र केचन इति पदं श्रुतवती वा भवती? केचन इति नूतनं पदं, केचन इति नूतनं पदं वयं पूर्वमेव पठितवन्तः. कश्चित् बालकः, कश्चित् बालकः. तत्र एकवचने वदामश्चेत् कश्चित् अथवा कश्चन इति वदामः. चित् अथवा चनप्रयोगः इत्युक्ते अनिश्चितार्थे चित् अथवा चनप्रयोगं कुर्मः अत्र. परन्तु एकवचने वदामश्चेत् कश्चित् कश्चन इति भवति. परन्तु अत्र बहुवचने अस्ति. कः शब्दस्य बहुवचनरूपं वक्तुं शक्नोति वा? कः शब्दस्य बहुवचनरूपम्? कः शब्दस्य बहुवचनरूपं? कः, के कः भवती जानाति एव संस्कृतभाषायां वचनत्रयमस्ति एकवचनं द्विवचनं बहुवचनं परन्तु अत्र एकवचने वदामश्चेत् कश्चन बहुवचने वदामश्चेत् केचन किमर्थं तथा कः योगः चन कश्चन के योगः चन केचन तत्र वानराः सन्ति परन्तु कति सन्ति इति वयं न जानीमः भवती जानाति वा कति सन्ति तत्र वानराः कति तत्र कति वानराः सन्ति इति वयं न जानीमः
न जानीमः
तत्र कति केचन वानराः सन्ति वि आर् नाट् श्यूर् अबौट् हौ मेनि आर् देर् तदा वक्तुमिच्छामश्चेत् केचन वानराः सन्ति इति वदामः अस्मिन् वाक्ये कर्मपदमस्ति वा
वानराः
वानराः इति पदं कर्तृपदं
कर्तृपदं
कर्तृपदम् अस्मिन् वाक्ये कर्मपदं नास्ति किमर्थं नास्ति इत्युक्ते अत्र अस्धातोः रूपम् एव सन्ति वयं पठितवन्तः पूर्वम् एकवचने वदामश्चेत् अस्ति बहुवचने किं वदामः
सन्ति
अस्ति सन्ति अस्धातोः बहुवचनरूपं लट्लकाररूपम् एव सन्ति अस्धातुः अकर्मकधातुः अतः अस्मिन् वाक्ये कर्मपदं नास्ति तत्र इत्युक्ते अत्र कुत्र देर् इत्युक्ते अत्र सर्वनामपदं दत्तमस्ति परन्तु नामपदं वदतु तत्र केचन वानराः सन्ति तत्र इत्युक्ते कुत्र उत्तमम् अरण्यं सः अरण्ये निद्रां करोति तस्मिन् अरण्ये केचन वानराः सन्ति तदा किम् अभवत् वानराः सन्ति चेत्
एकः वानरः सुधीरस्य समीपम् आगच्छति
आगत्य किं करोति
सः पेटिकां पश्यति
पेटिकायां किमस्ति तत्र पेटिकायां किं किं सन्ति
एकः शिरस्त्रं गृह्णाति
अत्र अहं किं पृष्टवती इत्युक्ते तत्र सुधीरस्य पार्श्वे एका पेटिका अस्ति परन्तु पेटिकायां किमस्ति पेटिकायां शिरस्त्राणि सन्ति शिरस्त्राणि कुत्र सन्ति
शिरस्त्राणि पेटिकां सन्ति
पेटिकायां सन्ति
पेटिकायां सन्ति
अत्र पेटिकाम् इति विभक्तिः वदतु विभक्तिं वदतु विभक्तिरूपं वदतु अत्र द्वितीयविभक्ति एकवचनं परन्तु स्त्रीलिङ्गपदं पेटिकाम् इति द्वितीयविभक्ति एकवचनरूपं परन्तु पेटिकायां शिरस्त्राणि सन्ति तत्र पेटिकायां वयं पठितवन्तः पूर्वमेव सप्तमीविभक्तेः विषये अत्र पेटिकायां शिरस्त्राणि सन्ति अनन्तरम् एकः अत्र सः इति दत्तमस्ति सः इत्युक्ते कः अस्मिन् वाक्ये सः इत्युक्ते वानरः पेटिकां पश्यति अनन्तरं पेटिकां दृष्ट्वा किं करोति वानरः
एकः शिरस्त्रं गृह्णाति
तस्मात् पूर्वम्
उद्घाटयति
किम् उद्घाटयति
पेटिकां
पेटिकाम् उद्घाटयति उद्घाटयति इत्युक्ते किम्
ओपन्
उत्तमं भवती जानाति एव पेटिकाम् उद्घाटयति परन्तु क्लोज् इति वदामश्चेत् किं वदामः तदपि ज्ञातव्यम् वी नीड् टु नो दट् वर्ड् आल्सो
किल
अत्र इत्युक्ते पिदधाति एकं क्रियापदमस्ति पिदधाति पिदधाति इत्युक्ते क्लोस् पिधानं करोति पेटिकां पिदधाति पेटिकाम् उद्घाटयति पेटिकां पिदधाति विरुद्धार्थकशब्दः सः वानरः पेटिकां पश्यति पेटिकां दृष्ट्वा पेटिकाम् उद्घाटयति उद्घाट्य किं करोति
एकं शिरस्त्रं गृह्णाति
एकं शिरस्त्रं गृह्णाति
गृह्णाति
अत्र ग्रहधातुः ग्रहधातुतः गृह्णाति इति पदम् आगतं वानरः शिरस्त्रं गृह्णाति गृह्णाति गृहीत्वा किं करोति
शिरसि धारयति
अत्र पश्यतु भगिनी एकं नूतनं पदमस्ति अस्माकं कृते शिरसि धारयति शिरसि इति पदस्य रूपं किं वक्तुं शक्नोति वा नूतनं पदम् अस्माकं कृते अत्र शिरसि इति पदं सप्तमीविभक्तिरूपं परन्तु अत्र शिरस् वयं जानीमः शिरस् शिरस् इति सकारान्तपदं परन्तु प्रथमाविभक्तिरूपं शिरः शिरः शिरसि शिरांसि सकारान्तपदं वयं जानीमः मनः मनः शब्दं जानीमः वयं मनः मनसि मनांसि तथा एव अत्र शिरसि शिरः शिरसि शिरांसि प्रथमाविभक्ति एकवचनं द्विवचनं बहुवचनं परन्तु अत्र वानरः शिरस्त्रं शिरसि धारयति अत्र शिरसि इति पदं सप्तमी विभक्ति एकवचनं परन्तु पदमस्ति सकारान्तपदं नपुंसकलिङ्गपदं शिरसि धारयति वानरः अनन्तरं किं करोति धारयति महोदय धारति अपि अस्ति धारयति इत्यपि अस्ति अत्र धातुः ध्रुधातुः धरति इति पदमस्ति परन्तु अत्र धारयति इति रूपं दत्तमस्ति अत्र ध्रुधातुतः धृतवान् धृतवती इति रूपाणि आगतानि परन्तु ध्रुधातुतः निजन्तरूपम् इति वदामः सामान्यरूपं यथा वयं जानीमः अहं पाठं पठामि अहं स्वयं पठामि पाठं परन्तु अधुना अहं पाठं पाठयामि पाठं पाठयामि पाठयामि इत्युक्ते अन्यं पाठयामि इति अत्र अन्यं पाठयामि पाठयामि इति पदम् अथवा धारयामि धारयति एतानि निजन्तपदानि निच्प्रत्ययान्तपदानि इत्युक्ते अत्र अन्येषां कृते वयं कुर्मः परन्तु अत्र सः वानरः अन्यं धारयति इति चिन्तयतु सः तु वानरः महोदय सः वानरः तदर्थं सः किमपि कर्तुं शक्नोति इत्युक्ते स्वयं धरति अथवा धारयति अन्यं धारयति अपि इति वयं चिन्तयितुं शक्नुमः सम्यक् वा अनन्तरं सः वानरः शिरसि शिरस्त्रं धारयति तदनन्तरं किं करोति भगिनी वदतु
पुनः वृक्षस्य उपरि गच्छति उपविशति
उपरि गच्छति उपविशति इत्युक्ते एकः वानरः तथा करोति चेत् अन्ये वानराः किं कुर्वन्ति
सेम् थिङ्ग्
सेम् थिङ्ग् उत्तमं तदेव अत्र भवति उत्तमं धन्यवादः भगिनि अनन्तरम् अत्र राजेशसिंह महोदय भवान् करोतु तृतीयपरिच्छेदम्
अन्ये अपि वानराः एतत् पश्यन्ति ते अपि शिस्त्रम् इच्छन्ति अतः अद्य आगच्छन्ति श्रेष्ठाणि धारयन्ति वृक्षे उपविशन्ति
अवगतं वा एतत् अत्र किमस्ति
आं भगिनि
एकमेकं वाक्यं स्वीकृत्य वयं चिन्तनं कुर्मः प्रथमं वाक्यं किं महोदय
अन्ये अपि वानरा एतत् पश्यन्ति
अत्र एतत् पश्यन्ति इति अस्ति एतत् इत्युक्ते किम् अन्ये वानराः अपि एतत् पश्यन्ति एतत् पश्यन्ति इति तत्र सर्वनामपदं दत्तमस्ति अत्र एतत् इत्युक्ते किं भवान् किम् अवगतवान् एतत् इत्युक्ते किम् एतत् इत्युक्ते तस्मात् पूर्वम् एकः वानरः तत्र अधः आगच्छति शिरस्त्रं गृह्णाति अपि च शिरसि धारयति तदनन्तरं पुनः वृक्षस्य उपरि गत्वा उपविशति एतत् सर्वम् अन्ये वानराः पश्यन्ति अवगतम् एतत् सर्वं तस्मात् पूर्वं यत् यत् अभवत् तत् सर्वम् अन्ये वानराः पश्यन्ति तदनन्तरं ते किं कुर्वन्ति ते अपि
तिरस्करं इच्छन्ति दे आल्सो लाइक टु हैव द कैप
अत्र अस्मिन् वाक्ये कर्मपदं किं महोदय ते अपि तिरस्करं इच्छन्ति अस्मिन् वाक्ये
शिरस्त्रम् इच्छन्ति
इच्छन्ति शिरस्त्रम् इति पदं कर्मपदं ते इच्छन्ति ते किमिच्छन्ति
ते शिरस्त्रम् इच्छन्ति
ते के ते के
ते असे ते वानरः
उत्तमं ते इत्युक्ते अत्र वानराः वानराः शिरस्त्रम् इच्छन्ति अनन्तरं ते किं कुर्वन्ति ते सर्वे
अतः अधः आगच्छन्ति
कुतः अधः आगच्छन्ति अतः अत्र कुतः पूर्वं सर्वे वानराः वृक्षस्य उपरि सन्ति परन्तु अधुना ते सर्वे अपि शिरस्त्राणि इच्छन्ति तदर्थं ते सर्वे अधः
आगच्छन्ति
अतः इति पदमस्ति अतः इत्युक्ते भवान् किम् अवगतवान् वदतु इत्युक्ते तस्मात् कारणात् तदर्थं किमर्थं ते अधः आगच्छन्ति तदर्थम् इत्युक्ते ते शिरस्त्रम् इच्छन्ति तदर्थमेव ते अधः आगच्छन्ति आगत्य किं कुर्वन्ति
शिस्त्राणि धारयन्ति वृक्षे उपविशन्ति
अस्तु तदेव इत्युक्ते ते एकमेकं शिरस्त्रं स्वीकृत्य
शिरस्त्राणि धारयन्ति मीन्स् दे वोर् द कैप्स् वृक्षे उपविशन्ति
अत्र महोदय लज्जां विना संस्कृतभाषायाम् एव वक्तुं वदतु महोदय तदर्थमेव अत्र अभ्यासः भवति अत्र वयं आङ्ग्लभाषायां वदामश्चेत् न कदापि अभ्यासः भवति वाक्यं समीचीनं नास्ति चेदपि वयं सर्वे अत्र प्रयत्नशीलाः भवामः वि आर् आल् ट्रैङ्ग् इन्क्लूडिङ्ग् मी तदर्थमेव अत्र यदि भवान् सर्वे अपि शृण्वन्तु यदि भवन्तः वक्तुमिच्छन्ति चेत् आङ्ग्लभाषा मास्तु अस्यां कक्षायां केवलं संस्कृतभाषायाम् एव वक्तुं वयं सर्वे प्रयत्नं कुर्मः अग्रिमपरिच्छेदं पठतु
सुधीरः जागृतः भवति पुरतः पश्यति एकम् अपि शिरस्त्रं नास्ति सः वानरान् पश्यति शिरस्त्राणि तत्र सन्ति सः दण्डं दृश्यति वानराः वृक्षशाखाः दृश्यन्ति सुधीरः शिलाखण्डं क्षिपति क्षिपति वानराः फलानि क्षिपन्ति
भवान् अवगतवान् वा अत्र किं दत्तमस्ति
आं भगिनि
अत्र अत्र प्रथमं वाक्यं पश्यतु सुधीरः जागरितः भवति अत्र जागरितः इति पदमस्ति इत्युक्ते किं महोदय
जागरितः
अत्र जागरितः सुधीरः जागरितः सुधीरः इति पदस्य विशेषणं जागरितः सुधीरः कीदृशः सुधीरः जागरितः इत्युक्ते अत्र जागरितः इति पदं क्तान्तरूपम् अत्र जागृ जागृ इति धातुः अस्ति संस्कृतभाषायां जागृधातुः परन्तु जागृधातुतः क्रियापदम् आगच्छति जागर्ति वयं जानीमः अस्मिन् वाक्ये अस्मिन् वाक्ये क्रियापदं किं महोदय वर्ब् क्रियापदं किं अत्र सुधीरः जागरितः न महोदय चिन्तयतु सुधीरः जागरितः भवति इति वाक्ये क्रियापदं किम् अत्र भवति भवति इति पदं क्रियापदं
भवति
कर्तृपदं किम् सब्जेक्ट्
सुधीरः
सुधीरः सुधीरः कर्ता भवति इति क्रियापदं परन्तु अत्र अस्मिन् अस्मिन् वाक्ये कर्मपदम् आब्जेक्ट् कर्मपदं नास्ति सुधीरः जागरितः यदि वयम् अत्र सुधीरः जागरितः भवति इति अपि वक्तुं शक्नुमः नो चेत् सुधीरः जागर्ति
सुधीरः जागर्ति
जागर्ति जागर्ति इति क्रियापदं परन्तु अत्र जागरितः इति दत्तमस्ति जागरितः इति पदं क्तान्तरूपं साधारणतया क्तान्तरूपाणि अथवा क्तवत्वान्तरूपाणि विशेषणानि भवन्ति वाक्ये सुधीरः अत्र प्रश्नं पृच्छामश्चेत् सुधीरः कीदृशः सुधीरः जागरितः तथा वदामः सुधीरः जागरितः भवति अनन्तरं पुरतः पश्यति कुत्र पश्यति
पुरतः पश्यति
पुरतः पश्यति वयं जानीमः पुरतः पृष्ठतः वामतः दक्षिणतः वयं पठितवन्तः पुरतः पश्यति कः पश्यति
पुरतः पश्यति
कः
एकम्
कः पश्यति अत्र अस्मिन् वाक्ये पुरतः पश्यति इति अस्ति कः पश्यति सुधीरः पश्यति
सुधीरः पश्यति
कुत्र पश्यति पुरतः कुत्र पश्यति न महोदय अत्र पश्यतु कः पश्यति इत्युक्ते सुधीरः पश्यति कुत्र पश्यति
पुरतः पश्यति
उत्तमं तावदेव एकमपि शिरस्त्रं तत्र नास्ति किमर्थम्
there's no cap left there's nothing no cap there
kimartham why
they took it all sorry vanaraha srishtrani dharyanti
उत्तमं तावदेव. अत्र वानरान् अनन्तरं सः अत्र वानरान् पश्यति, सुधीरः वानरान् पश्यति, तदा शिरस्त्राणि तत्र सन्ति. तत्र इत्युक्ते कुत्र? वानराणां शिरसि. शिरसि ते धारयन्ति. सः किं करोति तदा?
सः दण्डं दर्शयति.
दण्डं दर्शयति. अत्र दण्डः इत्युक्ते किं महोदय?
स्टिक्.
स्टिक्, उत्तमं. सः दण्डं दर्शयति. वयं भवान् जानाति एव पश्यति इति पदं जानाति, परन्तु अत्र दर्शयति इति दत्तमस्ति. अत्र तयोर्मध्ये भेदः कः?
पश्यति means sees, drashyati means shows.
उत्तमं, तावदेव, तदेव अत्र भेदः. सः सुधीरः दण्डं दर्शयति. दण्डं पश्यति इति न दत्तमस्ति अत्र, केवलं सुधीरः दण्डं दर्शयति. तदा वानराः किं कुर्वन्ति?
वानराः वृक्षशाखाः दृश्यन्ति.
वृक्षशाखाः दर्शयन्ति.
ब्राञ्च्.
उत्तमम्. अत्र पश्यतु महोदय, वृक्षशाखाः इति पदमस्ति. भवान् चिन्तयित्वा वदतु अत्र लिङ्गवचनविभक्तिः विभक्तिं वदतु. लिङ्गं किं, वचनं किं, स्त्रीलिङ्गं
द्वितीयविभक्ति, एकवचन, सोरि बहुवचन, वृक्षशाखाः.
उत्तमम्, उत्तमं, तदेव. यदि वयं लताशब्दं जानीमश्चेत् वयं सुलभतया वक्तुं शक्नुमः, लता वा अथवा शीताशब्दः वा शब्दं जानीमश्चेत् वयं सुलभतया वक्तुं शक्नुमः. अत्र शाखाः इति पदं बहुवचने अस्ति, बहुवचने अस्ति, परन्तु द्वितीयाविभक्तौ अस्ति. वानराः दर्शयन्ति. वानराः किं दर्शयन्ति?
वानराः वृक्षशाखाः दृश्यन्ति.
वृक्षशाखाः दर्शयन्ति, तथा एव. अत्र सुधीरः दण्डं दर्शयति, परन्तु वानराः वृक्षशाखाः दर्शयन्ति. अनन्तरं सुधीरः शिलाखण्डं क्षिपति. तदा वानराः किं कुर्वन्ति?
वानराः फलानि क्षिपन्ति.
सुधीरः शिलाखण्डं क्षिपति, वानराः प्रत्युत्तरम् उत्तरेण ते फलानि क्षिपन्ति वृक्षतः.
फलानि बहुवचन. क्षिपन्ति इस् अ बहुवचन आफ् क्षिपति,
राइट्? तावदेव. अत्र फलानि क्षिपन्ति. अत्र वानराः फलानि क्षिपन्ति, अस्मिन् वाक्ये कर्मपदं किम्?
फलानि.
उत्तमं. कर्तृपदं किं? कर्तृपदं किं?
वानराः.
वानराः. क्रियापदं?
क्षिपन्ति.
वानराः क्षिपन्ति इत्युक्ते एतत् वाक्यं कर्तरिप्रयोगे अस्ति. दिस् सेण्टेन्स् इस् इन् एक्टिव् वाय्स्. अतः कर्तृपदम् अनुसृत्य सर्वदा क्रियापदं सम्भवति. तदर्थमेव वानराः इति पदं बहुवचने अस्ति इति कृत्वा क्षिपन्ति. वानराः क्षिपन्ति. एकवचने वदतु वाक्यं.
वानरः वानरः क्षिपति.
उत्तमं, तावदेव. धन्यवादः महोदय. अनन्तरम् अधुना अत्र स्मिता भगिनी भवती कर्तुम् इच्छति वा, कर्तुं शक्नोति वा अधुना?
आम् आं भगिनि.
पठतु, भवती पठतु.
सुधीरः उपायं करोति, वानराः अनुकरणशीलाः इति सः जानाति. सः स्वकीयं शिरस्त्रं भूमौ क्षिपति. सर्वे अपि वानराः शिरस्त्राणि क्षिबन्ति सुधीरः सर्वाणि सङ्गृह्णाति शीघ्रम् अन्यत्र गच्छति
उत्तमम् उत्तमं भवती अवगतवती वा अत्र किं दत्तमस्ति
आं भगिनि
अत्र एकमेकं पदं स्वीकुर्मः वदामः अत्र सुधीरः उपायं करोति
सुधीरः सुधीरः चिन्तयति सः किं करिष्यति उपायम् आगच्छति
भगिनी अत्र 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 किञ्चित् किञ्चित् ध्वनिः अस्ति अहम् अनन्तरं पृच्छामि अधुना अन्यं पृच्छामि पुनः एकवारम् अहं भवतीं पृच्छामि अनन्तरम् अत्र सुबर महोदय भवान् वदतु एतदेव वाक्यं तत्र ध्वनिः अस्ति तदर्थं किञ्चित् म्यूट् कृतवती भगिनी सुबर महोदय भवान् वदतु अस्मिन् परिच्छेदे किं दत्तमस्ति
सुधीरः उपायं करोति
अत्र अस्मिन् वाक्ये कर्मपदं किम्
उपायम्
उपायं सः उपायः कः
सः उपायः वानराः अनुकरणशीलाः
वानराः अनुकरणशीलाः इति सः जानाति कः जानाति
इति सुधीरः जानाति
जानाति सुधीरः जानाति ज्ञात्वा किं करोति
ज्ञात्वा सः स्वकीयं शिरस्त्रं भूमौ क्षिपति
भूमौ क्षिपति अत्र वानराः कीदृशाः
वानराः सुधीरः
न न अत्र अहं किं पृच्छामि इत्युक्ते वानराः कीदृशाः कीदृशाः इत्युक्ते वानराः अत्र हौ आर् दे इत्युक्ते अत्र वानराः अनुकरणशीलाः
वानराः अनुकरणशीलाः
इत्युक्ते किं महोदय भवान् वदतु
अनुकरणशीलाः मीन् दे आर् फालोयर्स्
इत्युक्ते अत्र अनुकरणं कुर्वन्ति
अनुकरणम्
अन्यान् अन्यान् अनुकरणं कुर्वन्ति अनन्तरम् अत्र सः सुधीरः स्वकीयं शिरस्त्रं भूमौ क्षिपति अत्र स्वकीयम् इति पदमस्ति भवन्तः सर्वे श्रुतवन्तः एव अत्र भवदीय मदीय त्वदीय भारतीय एतानि पदानि वयं श्रुतवन्तः अत्र स्वकीय इति पदं दत्तमस्ति अत्र एकः प्रत्ययः अस्ति तथा प्रत्ययं योजनेन अत्र एतानि पदानि निष्पन्नानि भवन्ति त्वदीय मदीय भारतीय तथा एव अत्र स्वकीय सुधीरः किं करोति अत्र
सुधीरः स्वकीयशिरस्त्रं भूमौ क्षिपति
अत्र भूमौ इति पदस्य विभक्तिः का वदतु महोदय भूमौ क्षिपति अत्र पदमस्ति अत्र पदमस्ति भूमिः प्रथमाविभक्तिरूपं भूमिः परन्तु अत्र सप्तमी रूपं दत्तमस्ति सुधीरः सुधीरः स्वकीयं शिरस्त्रं भूमौ क्षिपति क्षिपति इत्युक्ते किं जानाति वा
क्षिपति मीन्स् ड्राप्
वयं जानीमः क्षिपणि तत्र क्रियापदमस्ति क्षिपति क्षिपति क्षेपणं क्षेपणम् अत्र तथा एव अत्र इतोपि किं दत्तमस्ति सः स्वकीयं शिरस्त्रं क्षिपति तथा वानराः किं कुर्वन्ति अनुकरणशीलाः इति कृत्वा ते किं कुर्वन्ति अनुकरणं कुर्वन्ति
सर्वे अपि वानराः शिरस्त्राणि क्षिपन्ति
शिरस्त्राणि क्षिपन्ति तथा सुधीरः किं करोति
सुधीरः सर्वाणि सङ्गृह्णाति
सङ्गृह्णाति सर्वाणि सङ्गृह्णाति सर्वाणि शिरस्त्राणि सङ्गृह्णाति इति अर्थः अत्र वयं पूर्वं जानीमः गृह्णाति इति पदं जानीमः परन्तु अत्र सङ्गृह्णाति इति अन्यं पदमस्ति अत्र सम् इति उपसर्गः अस्ति संस्कृतभाषायां द्वाविंशतिः उपसर्गाः सन्ति तेषु अन्यतमः सम् इति उपसर्गः अस्ति सम् उपसर्गपूर्वकः ग्रहधातुः अत्र सङ्गृह्णाति गृह्णाति सङ्गृह्णाति परन्तु अर्थभेदः अस्ति सङ्गृह्णाति इत्युक्ते किम्
गृह्णाति मीन्स् एक्सेप्ट्
गृह्णाति इत्युक्ते किम्
एक्सेप्ट्
अत्र शिरस्त्रं गृह्णाति इत्युक्ते अत्र कलेक्ट् कलेक्ट् इति अर्थः
कलेक्ट्
केवलं गृह्णाति इत्युक्ते होल्ड् परन्तु सङ्गृह्णाति इत्युक्ते सुधीरः सर्वाणि शिरस्त्राणि सङ्गृह्णाति गृहीत्वा सङ्गृहीत्वा सङ्गृह्य किं करोति
शीघ्रम् अन्यत्र गच्छति
किमर्थम् अन्यत्र किमर्थं गच्छति
अन्यत्र अदर् प्लेस्
किमर्थम् नो चेत्
वानराः निकटे न
इत्युक्ते यदि सुधीरः तत्रैव तिष्ठति चेत् पुनः एकवारं तदेव भविष्यति तदर्थमेव सः ततः अन्यत्र गतवान् अधुना महोदय भवानेव करोतु अत्र 11.3 भागे आभागे अत्र अभ्यासः अस्ति अभ्यासं करोतु
कथायां स्थूलाक्षरैः
दृश्यमानानि
क्रियापदानि भूतकालरूपेण परिवर्तयतु
उत्तमम् अवगतवान् वा सूचना का
कथायां स्थूलाक्षरे बोल्ड् लेटर्स् इन् द स्टोरि दृश्यमानानि क्रियापदानि वर्ब्स् भूतकालरूपेण परिवर्तयन्तु कन्वर्ट् इन् टु पास्ट् टेन्स्
उत्तमम् अत्र कथायां स्थूलाक्षरैः लिखितानि पदानि कानिचन पदानि सन्ति स्थूलाक्षरैः लिखितानि पदानि सर्वाणि अपि वर्तमानकाले सन्ति अपि अस्माकं कार्यं किं तेषां स्थाने भूतकालरूपाणां भूतकालरूपाणि लिखतु इति एव अत्र दत्तमस्ति पुनः एकवारं कथां पश्यतु महोदय सर्वे पश्यन्तु अत्र महोदयः उत्तराणि वदति सर्वे शृण्वन्तु अत्र स्थूलाक्षरैः लिखितानि पदानि कानि महोदय पुनः एकवारं कथां पश्यतु
अस्ति
रूपं किम्
अस्ति आसीत्
उत्तमम्
अस्ति रूपम् अस्ति आसीत्
गच्छति
गच्छति गतवान्
पदं योजयित्वा वाक्यं रचयतु पुनः एकवारम् एकदा सुधीरः
एकदा सुधीरः नगरं गच्छति एकदा सुधीरः नगरं गतवान्
उत्तमम् अग्रिमं वाक्यं
क्रीणाति क्रीणाति
क्रीतवान् वाक्यं वदतु
शिरस्त्राणि क्रीतवान्
अनन्तरं
गच्छति गतवान् तेषां विक्रयणार्थं ग्रामं गतवान्
उत्तमम् अग्रिमम्
अस्ति मार्गे अरण्यम् अस्ति मार्गे अरण्यम् आसीत्
उत्तमम्
सुधीरः श्रान्तः भवति अभवत् सुधीरः श्रान्तः अभवत्
उत्तमम्
सः वृक्षस्य अधः उपविशति सः वृक्षस्य अधः उपविशति
कोऽपि वदति वा अन्यः अन्यः कोऽपि उपविष्टवान्
उपविष्टवान्
वाक्यं वदतु
वाक्य सः वृक्षस्य अधः उपविष्टवान्
अग्रिमं
शिरस्त्रापेटिकां पार्श्वे स्थापयति शिरस्त्रापेटिकां पार्श्वे स्थापितवान्
सम्यक्
तत्र एव निद्रां करोति तत्र एव निद्रां कृतवान्
उत्तमम् अग्रिमे पुटे
तत्र केचन वानराः सन्ति तत्र केचन वानराः
वयं पठितवन्तः गते सप्ताहे अस्ति
अस्ति सन्
आसन् आसन् उत्तमं गते सप्ताहे वयं पठितवन्तः अस् धातोः रूपाणि वदतु वाक्यं वदतु
एकः वानरः सुधीरस्य समीपम् आगच्छति एकः वानरः सुधीरस्य समीपम् आगतवान्
सम्यक्
सः पेटिकां पश्यति सः पेटिकां दृष्टवान् उद्घाटयति उद्घाटयति उद्घाटवान्
यथा वयं जानीमः स्थापयति इति पदं तत् रूपं किं
स्थापितवान्
तथा एव अत्रापि
उद्घाटयति उद्घाटवान्
उद्घाटितवान्
एकं शिरस्त्रं गृह्णाति
गृह्णाति तस्य रूपं किं भवति इत्युक्ते कोऽपि जानाति वा कादम्बरी भगिनी जानाति वा गृहे जानाति चेत् वदतु भगिनि न अत्र भूतकालरूपं
उत्तमं
गृहीतवान् अनन्तरम्
एकं शिरस्त्रं गृहीतवान् शिरसि धारयति शिरसि धारयति
परन्तु अत्र धारितवान् इति वक्तव्यं धारितवान् परन्तु अत्र धृतवान् धरति धृतवान् धारयति धारितवान् अनन्तरं
पुनः वृक्षस्य उपरि गच्छति उपविशति पुनः वृक्षस्य उपरि गतवान् उपविष्टवान्
उत्तमं महोदय तावदेव अनन्तरं धन्यवादः अनन्तरम् अत्र कादम्बरी भगिनी भवती करोतु अग्रिमं परिच्छेदम्
अस्तु अन्ये अपि वानराः एतत् दृष्टवान्
अत्र पश्यतु भगिनि पश्यन्ति इति वाक्यमस्ति बहुवचने अस्ति तदर्थं भूतकालरूपमपि वदतु
दृष्टवन्तः
उत्तमं
ते अपि शिरस्त्रं इष्टवन्तः
ते अपि शिरस्त्रम् इष्टवन्तः. अग्रिमम्
अतः आगतवान् शिरस्त्राणि.
न न भगिनि, अत्र पश्यतु, अत्र पुनः पश्यतु, आगच्छन्ति इति पदमस्ति, बहुवचने अस्ति क्रियापदं, तदर्थं भूतकालरूपम् अपि बहुवचने भवेत्. आगतवन्तः वयं स्वयं पूर्वस्मिन् पुटे पठितवन्तः आगतवान् आगतवन्तः पुंलिङ्गे. स्त्रीलिङ्गे, स्त्रीलिङ्गे आगतवती आगतवत्यः, तथा वयं पठितवन्तः पूर्वस्मिन् पुटे. अग्रिमं वाक्यं.
शिरस्त्राणि दातितवन्तः वृक्षे उपविशन्तः. उपविष्टवन्तः.
सुन्दरं. प्रथमतया भवती अत्र किं करोतु, अत्र प्रथमं तत्र वाक्यं किं दत्तमस्ति तत् पठतु, तदनन्तरं परिवर्तनं कृत्वा पठतु, तदा सम्यक् भवति. अग्रिमं वाक्यं पठतु.
सुधीरः जागरितः भवति. सुधीरः जागरितः अभवत्.
तावदेव.
पुरतः पश्यति. पुरतः दृष्टवान्. एकम् अपि शिरस्त्रं नास्ति. एकम् अपि शिरस्त्रं न आसीत्.
उत्तमं, भवती अवगतवती न आसीत्. तत्र सन्धिं कुर्मः चेत् नासीत् इति भवति. न आसीत् भवती जानाति एव, न आसीत् इति पदमस्ति, परन्तु वयं सन्धिं कुर्मः चेत् नासीत् इति भवति. अत्रापि तथा एव, न अस्ति, नास्ति. अग्रिमं वाक्यं.
सः वानरान् पश्यति. सः वानरान् दृष्टवान्.
भवती कथं जानाति अत्र दृष्टवान् इति एव वदति भवती, किमर्थं भवती दृष्टवती इति न वदति, किमर्थम्?
एकवचनं,
परन्तु किमर्थं भवती दृष्टवती इति न वक्तुमिच्छति? दृष्टवती
पुल्लिङ्गे अस्ति.
उत्तमं, तदर्थमेव. अत्र सः वानरान् पश्यति. अत्र सः इत्युक्ते सुधीरः. सुधीरः पुंलिङ्गपदं, तदर्थमेव दृष्टवान् इति रूपं सम्यक्. अग्रिमम्.
शिरस्त्राणि तत्र सन्ति. शिरस्त्राणि तत्र आसन्.
आसन्.
सः दण्डं दर्शयति. सः दण्डं दर्शितवान्.
उत्तमं भगिनि, दर्शयति इति पदस्य रूपं दर्शितवान्, परन्तु पश्यति इति रूपं, तस्य रूपं पश्यति इति शब्दस्य रूपं
दृष्टवान्.
उत्तमं, पश्यति दृष्टवान्, दर्शयति दर्शितवान्.
वानराः वृक्षशाखाः दर्शयन्ति. वानराः वृक्षशाखाः दर्शितवन्तः
दर्शितवन्तः वानराः. अग्रिमम्.
सुधीरः शिलाखण्डं क्षिपति. सुधीरः शिलाखण्डं
क्षिप्तवान् अनन्तरं
सर्वे वानराः फलानि क्षिपन्ति. वानराः फलानि क्षिप्तवन्तः. सुधीरः उपायं करोति. सुधीरः उपायं कृतवान्
उत्तमम्.
वानराः अनुकरणशीलाः इति सः जानाति. सः वानराः अनुकरणशीलाः इति सः ज्ञातवान्.
उत्तमं. ज्ञातवान् ज्ञाधातुतः जानाति इति लट्लकाररूपं. ज्ञातवान् ज्ञातवती ज्ञातवन्तः ज्ञातवत्यः. एतानि तवतु भूतकालरूपाणि. वानराः अनुकरणशीलाः इति सुधीरः ज्ञातवान्. अग्रिमम्.
सः स्वकीयं शिरस्त्रं भूमौ क्षिपति. सः स्वकीयं शिरस्त्रं भूमौ क्षिप्तवान्. सर्वे अपि वानराः शिरस्त्राणि क्षिप्तवन्तः. सुधीरः सर्वाणि सङ्गृह्णाति. सुधीरः सर्वाणि
तत्र भगिनी किञ्चित् वदतु, ऊहं करोतु.
सङ्गृहीतवान्.
उत्तमं. सर्वे शृण्वन्तु, उत्तमरीत्या उक्तवती भगिनी. अत्र सङ्गृहीतवान् सम् उपसर्गपूर्वकः ग्रहधातुः, अतः सं योगः गृह्णाति, सङ्गृह्णाति. परन्तु तावत् रूपमस्ति सङ्गृहीतवान् सङ्गृहीतवान्. अनन्तरं
शीघ्रम् अन्यत्र गच्छति. शीघ्रम् अन्यत्र गतवान्.
तावदेव. बहु सुन्दररीत्या उक्तवती भगिनी भवती. उत्तमं, धन्यवादः. अनन्तरम् अत्र लक्ष्मी भगिनी भवती करोतु, अत्र अग्रिमम् अभ्यासं करोतु. 11.3 भागे, तत्र ई भागे अभ्यासपुस्तके पठतु.
इदानीं क्रियापदानां भूतकालरूपाणि उपयुज्य कथां पुनः पठतु.
तदेव वयं कृतवन्तः. अनन्तरं करोतु ई भागे किमस्ति.
एतद् दृष्ट्वा कः कदा कुत्र आसीत् इति लिखतु.
एतत् अत्र कोष्टकमस्ति. अत्र कोष्टकं तद् दृष्ट्वा कः कदा कुत्र आसीत्. अत्र वयं जानीमः कः कदा कुत्र. अत्र नामानि सन्ति, सन्दीपः, दिव्या, कृष्णः, तदा नामानि सन्ति. ते कदा कुत्र सन्ति इति वक्तव्यं. भवती करोतु, अभ्यासं करोतु.
सन्दीपः दशवादने विद्यालये आसीत्. दिव्या एकादशवादने क्रीडाङ्गणम् आसीत्।
अत्र पश्यतु भगिनि, अत्र पश्यतु, सन्दीपः दशवादने विद्यालये आसीत्। अत्र विद्यालयः इति पदस्य सप्तमी रूपं दत्तमस्ति, तथा एव वक्तव्यम्। अत्र उदाहरणत्वेन एकं वाक्यम् अस्माकं कृते एव दत्तमस्ति, उदाहरणं दृष्ट्वा वक्तव्यं। वदतु, अधुना सम्यक् रीत्या वदतु।
दिव्या एकादशवादने क्रीडाङ्गणे आसीत्।
अनन्तरं
कृष्णः द्वादशवादने गृहे आसीत्। अहं सप्तवादने ग्रन्थालये आसीत्।
भगिनि पश्यतु, पश्यतु, अत्र पश्यतु, भूतकालरूपाणि वक्तव्यम्, अपि च उत्तमपुरुष, उत्तमपुरुष। अहं शब्दस्य भूतकालरूपं किम्?
आसम्।
आसम्, आसम् योजयित्वा वक्तव्यम्।
अहं सप्तवादने ग्रन्थालये आसम्।
आसम्, अनन्तरं
वयम् अष्टवादने वित्तकोषे आस्म।
इत्युक्ते उत्तमपुरुष बहुवचनरूपम्, अपि च भूतकालरूपं वक्तव्यं। तावदेव उत्तमं भगिनि। अनन्तरम् अत्र महोदय, शङ्करन् महोदय, भवान् वक्तुमिच्छति वा अत्र अधुना वक्तुं शक्नोति वा? स्वास्थ्यं सम्यक् नास्ति इति उक्तवान् सः।
भगिनि मम जलदोषं, शिरोवेदना सर्वमस्ति।
अस्तु महोदय,
ऐ डोण्ट् वाण्ट् फिसिक् क्लास्।
अस्तु अस्तु, शृणोतु शृणोतु महोदय। अनन्तरम् अत्र अधुना किञ्चित् इतोपि कृत्वा अत्र स्थगयामः। राजीव्सिङ्ग् महोदय, भवान् वदतु, अहं किञ्चित् कश्चन प्रश्नान् पृच्छामि।
आं भगिनि,
अत्र अहं वाक्यं वदामि। अहम् अद्य संस्कृतं पठामि, अपि च अहं ह्यः संस्कृतं पठितवती, परह्यः अहं संस्कृतं पठितवती, तथा भूतकाले वदामः। परन्तु अहं श्वः संस्कृतं किं वदामः तत्र? भविष्यत्कालरूपं वदामश्चेत् किं वदामः? पुनः एकवारं वदामि, अहं संस्कृतम् अद्य पठामि, वर्तमानकाल वाक्यं वर्तमानकाले अस्ति, अहम् अद्य संस्कृतं पठामि। परन्तु भूतकाले वदामि चेत् अत्र अहं ह्यः संस्कृतं पठितवती, परह्यः संस्कृतं पठितवती, प्रपरह्यः अपि संस्कृतं पठितवती, परन्तु अहं भविष्यत्काले वक्तुमिच्छामि, अहं श्वः संस्कृतम्।
अहं श्वः संस्कृतं पठिष्यति,
पठिष्यामि,
पठिष्यामि,
तथा वक्तव्यं तत्र। अत्र किञ्चित् वदतु महोदय, भवान् श्वः किं खादिष्यति?
अहं श्वः भोजनं खादिष्यामि।
उत्तमम् उत्तमं, तावदेव, खादिष्यामि, अहं
खादिष्यामि।
भवान् प्रातः कदा, श्वः भवान् प्रातः कदा उत्थास्यति?
अहं प्रातः पञ्चवादने उत्थास्यामि
उत्थास्यामि उत्तमं साधारणतया वयं जानीमः भवान् कदा उत्तिष्ठति इति वदामि साधारणतया अहं कथं प्रश्नं पृच्छामि भवान् कदा उत्तिष्ठति इति वदामि परन्तु अधुना अहं भविष्यत्कालरूपं योजयित्वा प्रष्टुमिच्छामि भवान् कदा उत्थास्यति उत्तिष्ठति इति पदस्य भविष्यत्कालरूपम् उत्थास्यति अनन्तरं भवान् श्वः कुत्र गमिष्यति
अहं श्वः कार्यालयं गमिष्यामि
किमर्थं तथा गमिष्यति इति पदं प्रथमपुरुषरूपं परन्तु उत्तमपुरुष अहं गमिष्यामि अहं गमिष्यामि परं अनन्तरं भवान् कदा कार्यालयतः गृहम् आगमिष्यति
अहं कार्यालये गृहात् षट्वादने आगच्छामि
अत्र आगच्छामि इति वर्तमानकालरूपं परन्तु श्वः भवान् कदा आगमिष्यति
आगमिष्यति
भवान् इति पदं प्रथमपुरुषरूपं तदर्थं भवान् कदा आगमिष्यति परन्तु अहम् आगमिष्यामि
आगमिष्यामि
आगमिष्यामि उत्तमम् अनन्तरं भवान् श्वः भोजनं कदा स्वीकरिष्यति कदा स्वीकरिष्यति भोजनं कदा स्वीकरिष्यति भवान्
नववादने अहं भोजनं नववादने करिष्यसि
तदेव
स्वीकरिष्यामि
उत्तमं महोदय अधुना अत्र सुब्बारा महोदय भवान् करोतु किञ्चित् वदतु अत्र महोदय अत्र भवान् श्वः अल्पाहारे किं पास्यति पास्यति इत्युक्ते पिबति भवान् जानाति एव पिबति इति पदं पिबति इति शब्दस्य भविष्यत्कालरूपं पास्यति वदतु अल्पाहारे किं पास्यति
अहम् अल्पाहारं नववादने पश्यामि
कदा पास्यति इत्युक्ते नववादने परन्तु किं पास्यति अल्पाहारे किं पास्यति वाट् डु यु ड्रिङ्क् अत्र किं पिबति महोदय
फलरसं अहम् अल्पाहारे फलरसं पास्यामि
भवान् किं सङ्गीतं श्रोष्यति
अहं हिन्दुस्थानीसङ्गीतं श्रोष्यामि
उत्तमं महोदय सर्वे एकवारम् अत्र करपत्रमस्ति क्रियापदकोष्टकम् इति अत्र क्रियापदं दत्तमस्ति एकवारं पठतु महोदय पदानि सर्वाणि पदानि एकवारं पठतु
गच्छति पठति
तथा न महोदय तथा न प्रथमं पदमस्ति गच्छति गच्छति इति पदं वर्तमानकालरूपं लट्लकाररूपं द्वितीयं पदं किं
गच्छन्ति गच्छतु
गच्छतु इति तु वयं जानीमः लोट्लकाररूपम् आज्ञार्थे अथवा प्रार्थनार्थे तदनन्तरं किमस्ति
तदनन्तरं भूतकालरूपे गतवान्
भूतकालरूपं पुंलिङ्गे
पुंलिङ्गे भूतकालरूपं स्त्रीलिङ्गे गतवती
अनन्तरं
भविष्यत्कालं गमिष्यति
तदेव अस्माकं विषयः अद्य अस्माकं विषयः अस्ति भविष्यत्कालरूपं लृट् लकारः गच्छति इति पदस्य लुट् लकाररूपं गमिष्यति तथा पठतु गच्छति गमिष्यति पठति तथा वदतु
पठति पठिष्यति पठति पठिष्यति क्रीडति क्रीडिष्यति वदति वदिष्यति पिबति पश्यति
पाष्यति
पाष्यति लिखति लेखिष्यति नयति नेष्यति पश्यति दृश्यति
द्रक्ष्यति
द्रक्ष्यति
पश्यति द्रक्ष्यति
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 पृच्छति प्रक्षयति
प्रक्ष्यति तत्र महोदय अत्र प्रक्षयति इति नास्ति तत्र किमस्ति प्रक्ष्यति षकारः यकारः एकत्र एव योजयित्वा प्रक्ष्यति
प्रक्ष्यति
तावदेव अनन्तरं भवति
भवति भविष्यति भविष्यति मिलति मेलिष्यति त्यजति
यक्ष्यति त्यक्ष्यति
त्यक्ष्यति खादति खादिष्यति जानाति ज्ञास्यति
उत्तमं
करोति करिष्यति शृणोति श्रोणिष्यति
श्रोष्यति
श्रोष्यति
शृणोति शृणोति श्रोष्यति
ददाति दक्ष्यति
न महोदय दास्यति ददाति दास्यति अग्रिमं
प्रेषयति
प्रेषयिष्यति 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 अनन्तरं
प्रेषयिष्यति प्रक्षालयति प्रक्षालयिष्यति
उत्तमम्
उत्तिष्ठति उत्थास्यति
उत्तमम् उत्थास्यति
उत्थास्यति उपविशति उपवेक्ष्यति
उपवेक्ष्यति
उपवेक्ष्यति स्थापयति स्थापिष्यति
स्थापयिष्यति
स्थापयिष्यति स्मरति स्मरिष्यति आगच्छति आगमिष्यति
उत्तमम्
अस्ति भविष्यति
अस्ति भविष्यति
सूचयति सूचयिष्यति इच्छति
येषिष्यति
येषिष्यति
इच्छति इच्छति एषिष्यति
एषिष्यति स्वीकरोति स्वीकरिष्यति स्वीकरिष्यति गृह्णाति गृहीष्यति
महोदय तत्र तथा न वक्तव्यम् अत्र पश्यतु अत्र गृहीतवान् इति अस्ति परन्तु ग्रहीष्यति
ग्रहीष्यति
अत्र पश्यन्तु सर्वे गृहीत गृह्णातु गृहीतवान् गृहीतवती गृहीत्वा इति दत्तमस्ति परन्तु लृट्लकाररूपं ग्रहीष्यति
ग्रहीष्यति
तत्र सम्यक् उच्चारणं सम्यक् वक्तव्यं महोदय अत्र अवधानं दत्वा वक्तव्यम् अत्र भेदः अस्ति गृहीतवान् परन्तु ग्रहीष्यति तदेव अनन्तरं
रोदिति रोदिष्यति शक्नोति शक्यति
शक्ष्यति
शक्यति
शक्ष्यति शक्ष्यति शक्नोति शक्ष्यति शक्ष्यति इति भवति अनन्तरम्
आनयति आनेष्यति क्रीणाति पेष्यति
उत्तमं
निन्दति निन्दिष्यति
उत्तमम्
आह्वयति आह्वस्यति
आह्वास्यति
आह्वास्यति
सुन्दरं महोदय उत्तमरीत्या पठितवान् भवान् सर्वे एकवारं करपत्रं पठन्तु अत्र भविष्यत्कालरूपाणि अत्र सम्यक् अवधानं दत्वा पठन्तु पे अटेन्शन् अण्ड् देन् रीड् द वर्ड्स् दे आर् आल् वेरि न्यू टु यू तदर्थमेव सर्वे एकवारं पुनः करपत्रं पठन्तु अत्र भविष्यत्कालरूपाणि इति एव अस्माकं विषयः महोदय 12.1 भागे एकं वाक् तत्र किञ्चिदेव अस्ति पठतु महोदय अभ्यासपुस्तके भविष्यत्कालरूपाणि
भविष्यत्कालरूपाणि
भागे
सुब्रह्मण्यः श्वः विद्यालयं न गमिष्यति सः चिकित्सालयं गमिष्यति तत्र वैद्यः द्रक्ष्यति
वैद्यं द्रक्ष्यति
वैद्यं द्रक्ष्यति द्रक्ष्यति तेन सः सम्भाषणं करिष्यति स्वस्य अनारोग्यं निवेदिष्यति
निवेदयिष्यति
निवेदयिष्यति
उत्तमं
सः श्वः न क्रीडिष्यति गृहे उपविश्य पाठं पठिष्यति
उत्तमं तावदेव इत्युक्ते अत्र एकः बालकः अस्ति तस्य नाम सुब्रह्मण्यः सः श्वः अत्र भविष्यत्कालरूपाणि दत्तानि सुब्रह्मण्यः श्वः विद्यालयं न गमिष्यति सः कुत्र गमिष्यति चिकित्सालयं गमिष्यति किमर्थं तत्र सः तस्य स्वास्थ्यं सम्यक् नास्ति इति भाति तदर्थं सः चिकित्सालयं गमिष्यति अनन्तरं तत्र चिकित्सालये सः वैद्यं द्रक्ष्यति तदनन्तरं वैद्येन सह सः सम्भाषणं करिष्यति अनन्तरं स्वस्य अनारोग्यविषये निवेदयिष्यति सुब्रह्मण्यः तदनन्तरं तस्य स्वास्थ्यं सम्यक् नास्ति इति कारणतः सुब्रह्मण्यः श्वः न क्रीडिष्यति क्रीडितुं न शक्नोति सः केवलं गृहे एव उपविश्य पाठं पठिष्यति अत्र पश्यतु महोदय भविष्यत्कालरूपाणि कानि
भविष्यत्कालरूपाणि
गमिष्यति, द्रक्ष्यति, करिष्यति, निवेदयिष्यति, पीडिष्यति, पठिष्यति.
सुन्दरं, तावदेव. वयं जानीमः गमिष्यति इति पदं भविष्यत्कालरूपं, परन्तु वर्तमानकालरूपं गच्छति. गच्छति इति पदस्य रूपं गमिष्यति. द्रक्ष्यति कस्य रूपं महोदय?
गच्छति, पश्यति.
पश्यति. करोति इति पदस्य रूपं?
करिष्यति.
उत्तमं. निवेदयति?
निवेदयति, निवेदयिष्यति.
उत्तमं. क्रीडति इति पदस्य रुट् रूपं?
क्रीडिष्यति.
पठति?
पठिष्यति.
उत्तमं, तावदेव. इत्युक्ते भविष्यत्कालरूपाणि इत्युक्ते लृट् लृट् इति वदामः संस्कृतभाषायां, दशलकाराः सन्ति, परन्तु भविष्यत्कालरूपाणि इत्युक्ते लृट् लकाररूपाणि इति वदामः. परन्तु सर्वे अत्र एकः अभ्यासः अस्ति गृहपाठरूपेण, तत्र अभ्यासं सर्वे कुर्वन्तु. अत्र सुब्रह्मण्यः श्वः किं किं करिष्यति इति तत्र लिखितमस्ति. अत्र रिक्तस्थानानि सन्ति, भवन्तः सर्वे एतत् गृहपाठरूपेण कुर्वन्तु. अधुना आगामिसप्ताहे अपि पुनः एकवारम् अत्र मिलित्वा भविष्यत्कालरूपाणां विषये इतोपि किञ्चित् ज्ञास्यामः. अधुना विरमाम. धन्यवादः. शुभरात्रिः.
धन्यवादः भगिनि.
धन्यवादः भगिनि.
धन्यवादः भगिनि.
धन्यवादः भगिनि.